एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा बालेन्द्र शाहेन सुनसरी जनपदे सम्प्रत्यैव सम्भूतायाः घटनायाः तदनुत्पन्नायाः शान्ति सुरक्षायाः परिस्थितेः विषयेषु सुरक्षा निकायानां प्रमुखैस्सह विमर्शः विहितोऽस्ति। गृहमन्त्रिणः सुदन गुरुङ इत्यस्य समुपस्थितौ प्रधानमन्त्रिणा शाहेन नेपाल प्रहरिणः प्रहरी महानिरीक्षकेन दानबहादुर कार्किणा सशस्त्र प्रहरी बल नेपालस्य प्रहरी महानिरीक्षकेन नारायण दत्त पौडेलेन च सह पृथक पृथक मेलनं विधाय सुनसरी जनपदस्य पश्चात्तन परिस्थितेः सुरक्षा समाहोयस्य सम्भावित संकटस्य च विषयेषु विमृष्टमस्ति। तदवसरे प्रधानमन्त्रिणा शाहेन सुनसरी जनपदस्य परिस्थितिं तत्कालमेव नियमयितुं जनधनयोः सुरक्षां सुनिश्चेतुं सामाजिक सद्भावस्य विध्वंसकानि तत्वानि कठोरतया नियमयितुं च निर्देशनं दत्तमस्ति। सुनसरी जनपदे सम्प्रत्यैव सम्भूतां घटनां प्रति गभीरां चिन्तां प्रकटय्य अष्टभिः राजनीतिकदलैः सामाजिक सद्भावं शान्तिं राष्ट्रियैकतां च सुनिश्चेतुं संयुक्तरूपेण आह्वानं विहितमस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछानेभिदस्य आह्वाने ह्य उपविष्टस्य सर्वदलीय उपवेशस्य अनन्तरं प्रकाशितायां विज्ञप्तौ घटनायां मृतकेभ्य श्रद्धाञ्जलिं समर्प्य तेषां स्वजनेभ्य समवेदना प्रकटिता अस्ति। जनानां शीघ्र स्वास्थ्य लाभस्य कामना विहिता अस्ति। दलहि नेपालस्य वैविध्यपूर्णायाः एकतायाः सहिष्णुतायाः सामाजिक सद्भावस्य च विघटके गतिविधौ भागं न ग्रहीतुं सर्वान् नागरिकान् आह्वानं विहितमस्ति। दलहि समस्यानां समाधानाय आवेगस्य उत्तेजनायाश्चापेक्षया शान्तिपूर्णस्य संवादस्य सहमतेश्च मार्गम् आत्मसात् कर्तुं बलं दत्तमस्ति। विज्ञप्तौ प्रदेशेषु जनपदेषु स्थानीयस्तरेषु च सर्वदलीयं सर्वपक्षीयं च उपवेशम् आयोज्य संवादस्य विस्ताराय धार्मिक नेतृत्वेन नागरिक समाजेन स्थानीय प्रशासनेन च सह समन्वयं विधाय शान्तिं स्थापयितुं सम्बद्धानां दलानां स्थानीयाः समितयः निर्दिष्टाः वर्तन्ते। विज्ञप्तौ दलहि नागरिकाणां सुरक्षा राज्यस्य प्रथमं दायित्वमस्तीति उक्त्वा घटनां निष्पक्षरूपेण अनुसन्धाय दोषिणः दण्डयितुं पीडितेभ्यश्च सहयोगं प्रदातुं सर्वकारेण सह याचना विहिता अस्ति। विज्ञप्तौ रासोपा दलस्य सभापतिना रवि लामिछानेभिदेन नेपाली कांग्रेस दलस्य सभापतिना गगन थापा विदेन नेकपा एमाले दलस्य महासचिवेन शंकर पोखरेलिन राप्रपा दलस्य अध्यक्षेण राजेन्द्र लिङ्गदेन इत्यनेन नेपाली कम्युनिष्ट दलस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन श्रम संस्कृति दलस्य महासचिवेन आरएन राई इत्यनेन लोसपा दलस्य अध्यक्षेण महन्त ठाकुर इत्यनेन जनमत दलस्य अध्यक्षेण सीके राउत इत्यनेन जसपा दलस्य नेत्रा प्रकाश अधिकारिणा च हस्ताक्षराणि विहितानि सन्ति। कोशी प्रदेशस्य मुख्यमन्त्रिणा हिक्मत बहादुर कार्किणा ह्य आयोजितेन सर्वदलीय उपवेशेन गत रविवासरस्य रात्रौ सुनसरी जनपदस्य देवानगंज स्थाने सम्भूतायाः घटनायाः अनन्तरं उत्पन्नं परिस्थितिं ध्यात्वा सामाजिक सद्भावं शान्ति सुरक्षां च स्थापयितुं निर्णीतम् अस्ति। उपवेशेन पालिकास्तरेषु सर्वदलीयं सर्वपक्षीयं च उपवेशम् आयोज्य सामाजिक सद्भावस्य कृते कार्यक्रमाणां संचालनाय निर्णीतं वर्तते। गत रविवासरे द्वयोः पक्षयोः संघर्षानन्तरम् अशान्तं सुनसरी जनपदस्य जनजीवनं सामान्यं जायमानमस्ति। सर्वकारेण विभिन्नानि नवविधेयकानि संघीय संसदि प्रस्तुतुं स्वीकृतिः प्रदत्ता अस्ति। सिंहप्रासादे ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन सांविधानिक निकायानां पदाधिकारिणां पारिश्रमिक सेवा सौविध्य सम्बद्धादिनियमं संशोधयितुं निर्मितं विधेयकं खनिज पदार्थ सम्बद्धं विधिं संशोधयितुं एकीकर्तुं च निर्मितं विधेयकं संक्रामक पशुरोग नियन्त्रण सम्बद्धं विधेयकं पारपत्र सम्बद्धादिनियमं संशोधयितुं निर्मितं विधेयकं संघीय संसदि प्रस्तुतुम् अनुमतिर्दत्ता अस्ति। एवमेव मानवानां क्रय विक्रयेण नयनानयन नियन्त्रण सम्बद्धं प्रथम संशोधन विधेयकं बालश्रमं नियमयितुं निर्मितं विधेयकं आन्तरिक वायुसेवायाः दायित्व सम्बद्धं व्यवस्थापयितुं निर्मितं विधेयकं मेल सम्बद्धादिनियमं संशोधयितुं निर्मितं विधेयकं कर्मचारी संचय कोषाधिनियमं संशोधयितुं निर्मितं विधेयकं च संसदि प्रस्तुतुं स्वीकृतिः प्रदत्ता अस्ति इति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मिता पोखरेल असूचयत् मन्त्री परिषद उपवेशन प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषद सम्बद्ध एतत् विक्रमवर्षीया षष्ठम संशोधन नियमावली स्वीकृता अस्ति। उपवेशन समस्याग्रस्त सहकारी व्यवस्थापन समिति सदस्य पदे सिन्धुले जनपदस्य खेटराज दाहाल नियुक्तो स्थिति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री पोखरेल असूचयत्। सभामुखस्य डोलप्रसाद अर्यालस्य प्रधानमन्त्रिणः बालेन्द्र शाहस्य च मध्ये मेलवार्ता सम्भूता अस्ति। ह्य सम्भूते अनर्मेलने प्रतिनिधिसभायाः उपवेशं प्रभावपूर्णं मर्यादितं परिणाममुखं च विधातुं विमृष्टमस्तीति सभामुखस्य सचिवालयेन ज्ञापितम् वर्तते। एवमेव सभामुखेन अर्यालेन ह्यैव नेकपा एमाले दलस्य संसदीय दलस्य नेत्रा रामबहादुर थापा विधेन सह मेलवार्ता विहिता। सभामुखेन अर्यालेन परह्य विपक्षी दलस्य नेत्रा भीष्मराज आङदाम्बे इत्यनेन नेपाल कम्युनिष्ट दलस्य नेत्रा वर्षमान पुन इत्यनेन सहापि मेलवार्ता विहिता आसीत्। एतैस्सह सम्भूते मेलने प्रतिनिधिसभायाः उपवेशं प्रभावपूर्णं मर्यादितं परिणाममुखं च विधातुं विमृष्टमस्तीति ज्ञापितं वर्तते। संसदीय श्रवण समित्या निर्वाचन आयोगस्य प्रमुख निर्वाचन आयुक्तस्य आयुक्तयोश्च कृते परामृष्टानां त्रयाणाम् एव जनानां नाम सर्वसम्मतरूपेण अनुमोदितमस्ति। संसदीय श्रवण समितेः ह्य उपविष्टेन उपवेशेन प्रमुख निर्वाचन आयुक्त पदे परामृष्टस्य मानबहादुर कार्किणः आयुक्त पदे परामृष्टस्य गुरूप्रसाद वाग्ले इत्यस्य डाक्टर राजीव सुब्बा इत्यस्य च नाम सर्वसम्मतरूपेण अनुमोदितमस्तीति सभापतिः बोधनारायण श्रेष्ठ अज्ञापयत्। निर्वाचन आयोगस्य प्रमुखायुक्त पदे आयुक्त पदयोश्च अनुमोदितैः जनैः श्रवणस्य क्रमे प्रस्तुतानां कार्ययोजनानां समितौ सम्भूतस्य विमर्शनस्य श्रवणस्य आधारे सूचकान् समयम् उपलब्धिसहितान् विषयान् च संश्लिष्य अधिकं परिणाममुखं विधाय आनेतुम् अनुरुद्धमस्ति। चिकित्सा शिक्षा आयोगेन वर्तमान आर्थिक वर्षस्य कृते षडब्जानां पञ्चपञ्चाशत् कोटीनां पञ्चविंशतिर्लक्षाणां रूप्यकाणां कार्यक्रमः आयव्ययकं च स्वीकृतमस्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य अध्यक्षतायां ह्य प्रधानमन्त्री मन्त्री परिषदः कार्यालये उपविष्टेन आयोगस्य उपवेशेन नेपाल सर्वकारस्य पक्षतः विनियोजितानां पञ्चाब्जानां नवनवतिः कोटीनां एकविंशतिर्लक्षाणां च रूप्यकाणां आयोगस्य अन्तर्स्रोत पक्षतः षट्पञ्चाशत् कोटीनां चतुर्लक्षाणां च रूप्यकाणाम् आयव्ययकं स्वीकृतमस्ति। सर्वकारस्य नेपाल चिकित्सक संघस्य च मध्ये ह्य सहमतिः सम्भूता अस्ति। सहमतेरनन्तरं चिकित्सकैः विधीयमाना आन्दोलन कार्यक्रमः प्रत्यावर्तितः सन्ति। श्रावणस्य नवमे दिवसे वीरगंजवर्तिनी नारायणी चिकित्सालये कार्यरतेषु चिकित्सकेषु स्वास्थ्यकर्मीषु च विहितायां सांघातिकाक्रमणस्य चिकित्सालये विहितस्य त्रोटनस्य च घटनायां संघेन दोषिणां दण्डयाचना विहिता आसीत्। विवादस्यास्य समाधानाय नेपाल सर्वकारस्य चिकित्सा संघस्य च मध्ये ह्य पञ्चसूत्रात्मिकः सहमतिः सम्भूता अस्ति। कर्णाली प्रदेशस्य नवनियुक्तः मुख्यमन्त्री मंगलबहादुर शाही ह्य पदगोपनीयतायोः शपथं गृहीतवान्।